एष रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रियसभाया उपवेशे एतद् विक्रमवर्षीयं विनियोजन विधेयकमाधृत्य विचार्यतामिति निगद्य प्रस्तुत प्रस्ताव बहुमतेन स्वीकृतोऽस्ति। ह्य उपवेशे अर्थमन्त्रिणा डॉ स्वर्णिम वाग्ले विधेन एतद् विक्रमवर्षीयं विनियोजन विधेयकमाधृत्य विचार्यतामिति निगद्य प्रस्ताव प्रस्तुत आसीत्। विमर्शने सांसदै उत्थापितान् प्रश्नान् उत्तरयन् अर्थमन्त्री डॉ वाग्ले शिक्षा क्षेत्रे विपन्न वर्गस्य सहज प्राप्तिं वर्धयितुं, दलित वर्गाणां विपन्न वर्गाणां च बालेभ्य पौष्टिकाहारं प्रदातुं, विद्युत क्षेत्रस्य प्रवर्धनं कर्तुं च सर्वकारेण प्राथमिकतापूर्वकं कार्यं विधीयमानमस्ति इति सूचयत्। प्रस्तावमाधृत्य विहिते सैद्धान्तिके विमर्शने सांसदै आयव्ययेन मध्यम वर्गस्य विपन्न वर्गस्य च आवश्यकतां सम्बोधयितुं न शक्तमित्युक्त्वा स्थानीयेभ्य प्रादेशिकेभ्यश्च सर्वकारेभ्य वित्त हस्तान्तरण सम्बद्धां व्यवस्थाम् अतिरिक्तं स्पष्टयितुं, मूल्यवृद्धिं नियन्त्रयितुं च सर्वकारस्य ध्यानम् आकृष्टमासीत्। राष्ट्रियसभाया परोपवेशः श्व बुधवासरे दिवा सपादैकवादने वस्ता। अधिकार दुरूपयोग अनुसन्धान आयोगेन नवीन पर्यटन गन्तव्य स्थलानाम् अन्वेषणाय निश्चयनाय च संचालिते कार्यक्रमे भ्रष्टाचार विहित इत्यभियोगे बझांग जनपदस्य दुर्गाथली ग्रामपालिकायाः निमित्त प्रमुख प्रशासकीयाधिकृतेन सहितानाम् नवजनानाम् विरूद्धे विशेष न्यायालये आरोपपत्रम् पञ्जीकारितमस्ति। आयोगेन दुर्गाथली ग्रामपालिकायाः निमित्त प्रशासकीयाधिकृतस्य मकरबहादुर मण्डलस्य लेखाधिकृत प्रेम प्रसाद पौडेलस्य, छब्बीस पाथीभेरा ग्रामपालिकायाः स्थपतेः हिक्मत राव लित्यस्य, सहायक स्थपतेः बम बहादुर बोहरा इत्यस्य च विरुद्धे द्वाविंशतिर्लक्षेभ्योऽपि अधिकानां रूप्यकाणां हानिवित्तम् अभियाच्य आरोपपत्रं पञ्जीकारितमस्ति। छब्बीस पाथीभेरा ग्रामपालिकायाः तात्कालिकस्य उपाध्यक्षस्य राधिका कुमारी रताला इत्यस्य, षष्ठ ओडा क्षेत्रस्य ओडाध्यक्षस्य मोहनलाल विक इत्यस्य च विरुद्धे अपि समानम् हानिवित्तम् अभियाच्य आरोपपत्रम् पञ्जीकारितमस्ति। बाचपाली देव मन्दिर निर्माण समितेः अध्यक्षस्य कृष्णबहादुर बुढा इत्यस्य, कोषाध्यक्षस्य मधुली देवी बुढा इत्यस्य विरुद्धे च समानम् हानिवित्तम् अभियाच्य आरोपपत्रम् पञ्जीकारितमस्ति इति अधिकार दुरूपयोग अनुसन्धान आयोगेन ज्ञापितम् वर्तते। सम्प्रति कोशी मधेश बागमती प्रदेशानां सम्पूर्ण भूभागेषु गण्डकी प्रदेशस्य कतिपय भूभागेषु लुम्बिनी प्रदेशस्य पूर्वदिशः भूभागानां कतिपय स्थानेषु च वर्षा जवायोः प्रभावो वर्तते इति जलवायु वातावरण पूर्वानुमान महाशाखया ज्ञापितमस्ति। देशस्य अन्य भूभागेषु पश्चिम वायोः स्थानीय वायोश्च आंशिक रूपेण प्रभावोऽस्ति इति महाशाखया ज्ञापितम् वर्तते। सहैव गण्डकी लुम्बिनी प्रदेशयोः अवशिष्ट भूभागेषु कर्णाली सुदूरपश्चिम प्रदेशयोः सम्पूर्ण भूभागेषु च अद्य यावद् वर्षा जवायोः विस्तारस्य सम्भावना अस्तीत्यतः सावधानताम् अवलम्बितुं महाशाखया सर्वे अनुरुद्धा सन्ति इति जलवायुविद् सरोज पुडासैनी असूचयत्। एतत्पूर्वमेव राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन अद्य श्वश्च देशस्य विभिन्न स्थानेषु भीषण वृष्टेः कतिपय स्थानेषु अधिक वृष्टिश्च सम्भावना अस्ति इति ज्ञापयता आवश्यकं पूर्वकार्यं विधाय सावधानताम् अवलम्बितुं सर्वे पक्षाः अनुरुद्धा सन्ति। विशेष न्यायालयेन पूर्व प्रधानमन्त्रिणं पूर्वार्थमन्त्रिणं विष्णुप्रसाद पौडेलं सम्पत् शुद्धिकरण सम्बद्धे प्रकरणे अतिरिक्तं दिवसत्रयं यावत् निगृह्य अनुसन्धातुम् अनुमतिः प्रदत्ता अस्ति। विशेष न्यायालयस्य न्यायाधीशानां नारायण प्रसाद पौडेलस्य, हेमन्त रावल इत्यस्य, उमेश कोइरालाभिदस्य च न्यायपीठेन अतिरिक्तं दिवसत्रयं यावत् निगृह्य अनुसन्धातुं सम्पत् शुद्धिकरण विभागाय अनुमतिः प्रदत्ता अस्ति। विशेष न्यायालयेन एतत्पूर्वं एमाले दलस्योपाध्यक्षं पूर्वार्थमन्त्रिणं पौडेलं सम्पत् शुद्धिकरण सम्बद्धे प्रकरणे सप्तदिनानि निगृह्य अनुसन्धातुं प्रहरिणे अनुमतिः प्रदत्ता आसीत्। पौडेलः सेवा आषाढमासस्य अष्टमे दिवसे सुर्खेत जनपदात् निगृह्य काष्ठमण्डपम् आनीय ह्य न्यायालये उपस्थापितोऽस्ति। विशेष न्यायालयेन पारपत्र प्रकरणे भ्रष्टाचारस्य अभियोगे आरोपितान् पारपत्र विभागस्य महानिर्देशकेन तीर्थराज अर्यालेन सहितान् पञ्चजनान् न्यासवित्तं गृहीत्वा अनिवार्यतः उपस्थापितुम् आहुते समये अनिवार्यतः उपस्थातुम् निर्दिश्य प्रहरी नियन्त्रणात् मोचयितुम् आदिष्टम् वर्तते। विशेष न्यायालयस्य सदस्यः नारायण प्रसाद पौडेल विशेष न्यायालयस्य सदस्यानां नारायण प्रसाद पौडेलस्य हेमन्त रावलस्य उमेश कोइराला विदस्य च न्यायपीठेन ह्य एवमादिष्टमस्ति। न्यायालयेन आरोपितात् महानिर्देशकात् अर्यालात् पञ्चलक्षाणि रूप्यकाणि, निर्देशकात् सुनील कुमार केसी इत्यस्मात् चत्वारि लक्षाणि रूप्यकाणि, विभागस्य कर्मचारीभ्य सोमेश थापा इत्यस्मात् त्रीणि लक्षाणि, विपिन प्रसाद इत्यस्मात् त्रीणि लक्षाणि, आरोपित संस्थायाः नेपालस्य प्रतिनिधितः मणीन्द्र राज मल्ल इत्यस्माच्च पञ्चलक्षाणि न्यासवित्त रूपेण याचितानि सन्ति। सर्वकारेण जनतायाः जलविद्युत् कार्यक्रमस्य माध्यमेन अग्रेसारितायाः डोल्पा जनपदस्य जगदुल्ला जलविद्युत् आयोजनायाः निर्माणकार्यम् प्रारब्धमस्ति। मुख्य निर्माण संस्थया सह संविदायाः अनन्तरं निर्माणकार्यम् अग्रे वर्धितमस्ति इति जगदुल्ला जलविद्युत् आयोजनायाः प्रमुख कार्यकारीधिकृतः संजय सापुटा असूचयत्। षडुत्तरैकशत मेगावाट मिद सामर्थ्यस्य आयोजनायाः विस्तृतरूपेण स्थापत्यम् अध्ययनं, वातावरण प्रभावस्य मूल्यांकनं, भूम्यधिग्रहणं, विद्युत् क्रय विक्रय संविदा, वित्तीय व्यवस्थापनम्, उद्योगस्य पञ्जीकरण चेत्यादीनि कार्याणि एतत् पूर्वमेव सम्पादितानि सन्ति। परियोजनेयं सर्वकारीय स्वामित्वे स्थानीयानां सहभागितायां सुदेशस्य वित्तस्रोतसां संयोजने च निर्मीयमाणा देशस्य निदर्शनयुता आयोजना अस्ति। सभामुखः डोलप्रसाद अर्यालः सांसदानां कार्यं व्यवहारशैली च मतदातृभिः जनतया च विभिन्न संचारमाध्यमैः निरीक्ष्यमाणः सन्तीति चर्चयन् सर्वैः सांसदैः स्वस्व कार्यं प्रति दायित्ववाहिभिर्भाव्यमित्यत्र बलं ददाति। संघीय संसद सचिवालयेन प्रतिनिधिसभायाः सांसदानां कृते ह्य काष्ठमण्डपे आयोजिते अभिमुखीकरण कार्यक्रमस्य उद्घाटन कार्यक्रमे सभामुख अर्यालः विधि निर्माण कार्ये जनप्रतिनिधिभिः विगतकालिक समुचिताभ्यासेभ्य शिक्षां गृहीत्वा प्रविधि मैत्रीभिः अध्ययनशीलैश्च भाव्यम् इत्यत्र बलं दत्तवान्। ह्य एव महालेखा परीक्षक कार्यालयस्य 68तम वार्षिकोत्सव समारोहे काष्ठमण्डपे सभामुख अर्यालः लेखापरीक्षणे आधुनिकोपकरणानां प्रभावकारिरूपेण प्रयोगो विधेय जनशक्ति विकासाय संस्थागत सामर्थ्यस्य अभिवृद्धये च महालेखा कार्यालयेन विशेष ध्यान प्रदानस्य आवश्यकता अस्ति इति प्रत्यपादयत्।